ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः।
धन्यवादः महोदय. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि प्रयोगः. कर्मणि प्रयोगः इति विषये तत्र गतवर्गे तत्र परिचयः इति वक्तुं शक्नुमः. परिचयः एव गतवर्गे जातः. परिचयः नाम तत्र नियमाः के इति तत्र ज्ञातवन्तः. तत्र अस्तु, तत्र सूर्यकुमारी भगिनी तत्र एकवारं वदति वा तत्र कर्तृप्रयोगे कः नियमः? वाक्यम् अस्ति तत्र, एकम् उदाहरणं स्वीकृत्य कर्तृप्रयोगवाक्यं स्वीकृत्य के नियमाः इति वदति वा एकवारम्?
भिक्षुकेन
न न कर्तृप्रयोगे कर्तृप्रयोगे
ओके भिक्षुकः धनिकं धनं याचति.
हा, किन्तु तादृशं सरलं वाक्यं द्विकर्मकं मास्तु खलु.
ओके ओके
धनिकं याचति इति, किन्तु तत्र हा अन्यत् सरलवाक्यं स्वीकरोतु किमपि.
अद्य वयं कर्मणि प्रयोग वर्गे
भगिनी सरलवाक्यम् अती सरलवाक्यं चेत् तत्र किं भवती क्लिष्टवाक्यं वदति? अस्तु, अहम् इदानीं पृच्छामि, भवती यद् यावत् क्लिष्टं कर्तुं शक्नोति तावत् क्लिष्टं वाक्यं वदतु इति पृच्छामि वा? अतः सरलवाक्यमेव पर्याप्तं भगिनि. सरलवाक्यं नाम कर्तृपदं क्रियापदं कर्मपदं.
बालकः पुस्तकं पठति.
हा, इदानीं समीचीनम्. अस्तु, हा इदानीं तत्र अस्मिन् वाक्ये तत्र के नियम अंशाः सन्ति?
प्रथमः कर्तृपदं, प्रथमा विभक्ति भवति,
विभक्त्यन्तम् अस्ति,
विभक्त्यन्तं. कर्मपदं, कर्मपदं द्वितीयविभक्ति,
विभक्त्यन्तं
विभक्त्यन्तं. क्रियापदं कर्तृपदम् अनुसरति.
हा, कस्मिन् विषये क्रियापदं कर्तृपदम् अनुसरति?
वचन
वचने वचने नाम यत् वचनं कर्तृपदस्य तदेव वचनं
वचनं
क्रियापदस्य
वचनं पुरुषः
पुरुषः अपि. हा, यः वचन यः पुरुषः कर्तृपदस्य सः एव पुरुषः क्रियापदस्य. समीचीनम्. अतः तत्र कर्तुः पुरुषः वचनं च. हा, इदानीं हा अतः तत्र कर्तृप्रयोगे किमर्थं नाम कर्तृप्रयोगः इति अस्ति चेत् तत्र कर्तुः अथवा कर्तृपदस्य प्राधान्यं. समीचीनं, प्राधान्यम् अस्ति नाम कर्तृपदमेव प्राधान्यं, यतोहि तत्र क्रियापदं कर्तृपदम् अनुसरति. तत्र केवलं पदत्रयमेव अस्ति, तेषु तु तत्र कर्तृपदमेव प्राधान्यं, यतोहि क्रियापदं कर्तृपदम् अनुसरति. समीचीनं. हा, अस्तु, इदानीं नरेश् महोदय तत्र कर्मणि प्रयोगे के नियमाः?
कर्मणि प्रयोगे कर्तृपदं तु तृतीयविभक्तिः अस्ति,
विभक्त्यन्तं भवति.
कर्मपदं प्रथमा विभक्त्यन्तम् अस्ति. क्रियापदं कर्मपदम् अनुसरति.
कस्मिन् विषये?
वचने, पुरुषे
पुरुषे
अपि.
हा, पुरुषे अपि, वचने अपि, पुरुषे अपि. समीचीनं महोदय. हा, इदानीं तत्र यत् वाक्यं सूर्यकुमारी भगिनी उक्तवती तत्र बालकः पुस्तकं पठति तत्र कर्मणि प्रयोगरूप कर्मणि प्रयोगे रूपं किं
बालकेन पुस्तकं पठ्यते
पठ्यते इति इदानीं तत्र बालकः पुस्तकं पठति इति स्थाने केवलं तत्र रमेशः पुस्तकं पठति अस्ति चेत् अथवा बालकाः पुस्तकं पठन्ति अस्ति चेत् तत्र किं भवति
बालकाः पुस्तकं पठन्ति बालकैः पुस्तकं पठ्यन्ते न पठ्यते
समीचीनं समीचीनम् अतः समीचीनं महोदय अतः तत्र किम् अस्ति क्रियापदं कर्मपदम् अनुसरति वचने पुरुषे च इति समीचीनम् अतः तत्र प्रायशः सारल्यं भवति तत्र यदि तत्र परिवर्तनं कर्तुम् इच्छामः तत्र किं करणीयम् इत्युक्ते तत्र कर्तृप्रयोगवाक्यम् अस्ति नाम तत्र पश्यामः तत्र पुटसङ्ख्या अस्ति तत्र 18-अधिकशततमे पुटे एतत् प्रायशः गतवर्गे कृतवन्तः किन्तु केवलम् उदाहरणार्थं तत्र सेवकः धनम् इच्छति इति स्वीकुर्मः सेवकः धनम् इच्छति तत्र एतत्तु कर्तृप्रयोगे अस्ति इदानीं तत्र किं करणीयम् इत्युक्ते कर्मणि प्रयोगरूपम् इच्छामश्चेत् किं करणीयम् इत्युक्ते कर्तृपदं त्यजामः केवलं धनम् इच्छति इति स्वीकुर्मः कः दिनं धनम् इच्छति महत्वपूर्णं नास्ति केवलं धनम् इच्छति कोऽपि अस्ति सः धनम् इच्छति इदानीं कर्मपदम् अस्ति क्रियापदम् अस्ति इदानीं परिवर्तनं कर्तुं शक्नुमः खलु तत्र धनं तु समानम् अस्ति नपुंसकलिङ्गपदम् अतः धनमेव प्रथमविभक्तौ अपि इदानीम् इच्छति इति स्थाने किं भवति इष्यते इति इष्यते यतोहि धनं तु एकवचने अस्ति प्रथमपुरुषः एकवचनरूपम् अतः धनम् इष्यते तदनन्तरम् ओ अस्तु अस्तु कर्तृपदमपि अस्ति सेवकः इति कर्तृपदम् अस्तु अस्तु इदानीं कर्तृपदं स्वीकृत्य सेवकः इदानीं सेवकेन इति स्थापयामश्चेत् क्लेशः न भवति तत्र बालकः पुस्तकं पठति पुस्तकं पठ्यते ओ केन ओ बालकः अस्तु अस्तु बालकः पठितवान् अस्तु अस्तु बालकेन पुस्तकं पठ्यते इति तादृशं कुर्मश्चेत् सुलभः भवति इति मन्ये अस्तु इदानीं तत्र अतः तत्र एतावत् किं किम् उक्तवन्तः नाम तत्र कर्तृपदस्य परिवर्तनं कथं भवति इति उक्तवन्तः नाम प्रथमविभक्त्यन्तं कर्तृप्रयोगे तृतीयाविभक्त्यन्तं कर्मणि प्रयोगे कर्मपदं द्वितीयाविभक्त्यन्तं कर्तृप्रयोगे प्रथमाविभक्त्यन्तं कर्तृप्रयोगे किन्तु तत्र क्रियापदस्य परिवर्तनं कीदृशम् इति वक्तव्यम् इति वक्तव्यम् अस्ति अतः तत्र रघुपतिमहोदय तत्र क्रियापदस्य परिवर्तनं कीदृशं भवति महोदय क्रियापदस्य तत्र पठति इति स्थाने पठ्यते इति
अत्र धातुतः इति आगच्छति मध्ये अनन्तरम् आत्मनेपदिप्रत्ययः सर्वदा भवति अतः पठ इति अस्ति धातु पठ्यते इष् इति धातु अस्ति इष् योग ययोगते इष्यते
इष्यते समीचीनं महोदय अतः तत्र इदानीं तत्र अंशत्रयम् अस्ति तत्र कर्म कर्तृपदं कर्मपदं क्रियापदं तेषां सर्वेषां परिवर्तनं कथम् इति इदानीं जानीमः अतः तत्र इदानीं तत्र साक्षात् तत्र कर्मणि प्रयोग तत्र कर्तृप्रयोगात् कर्मणि प्रयोगरूपं प्राप्तुं शक्नुमः वयम् अपि तत्र अतः तत्र अभ्यासमपि कुर्मः किन्तु एकवारं तत्र प्रयोगः कीदृशः तत्र साक्षात् पाठः अस्ति अतः पाठं पठामः अद्य तदनन्तरम् अन्ये अभ्यासाः ये सन्ति तानपि कुर्मः अतः तत्र प्रथमतया पाठं यत् अस्ति तत् पठामः तत्र 16-अधिकशततमे पुटे पाठः अस्ति तत्र अनेकः जनः अनेके जनाः अपेक्षिताः तत्र प्रधानाचार्यः अस्ति राजेन्द्रः अस्ति अभयः अस्ति श्वेता अस्ति गौरवः अस्ति पङ्कजः अस्ति अस्तु एतत् कुर्मः तत्र रघुपतिमहोदय भवान् प्रधानाचार्य भवतु तत्र तत्र एकवारं नरेश महोदय भवान् वदतु तदनन्तरं सूर्यकुमारी भगिनी भवती वदतु
अस्तु महोदय
तादृशं कुर्मः वा अस्तु अस्तु
कर्मणि प्रयोगः वर्तमानकाले एतत् सम्भाषणम् उच्चैः पठत कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति इदानीं प्रधानाचार्यः वदति संस्कृतसप्ताहस्य आचरणावसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु
निश्चयेन श्रीमन् निश्चयेन श्रीमन् अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चवर्गस्य पञ्चमवर्गस्य छात्राः सज्जीकृताः कृताः विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ललाटे तिलकं धार्यते संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते
समीचीनम् एतत् अभयवर्य भवता किं चिन्त्यते
द्वितीये दिने मया गीतस्पर्धा
आयोज्यते
तस्मिन् कार्यक्रमे कैः कैः भागः गृह्यते
भवती एव अग्रे
महोदय षष्ठवर्गस्य छात्रैः समूहगीतं प्रस्तूयते
अस्तु इदानीं भवती एव वदतु भगिनी तत्र श्वेता हा श्वेता हा
श्वेतापि
सप्तमवर्गस्य छात्रैः देशभक्तिगीतं गीयते
तृतीये दिने संस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यते खलु
आं श्रीमन्
इदानीं तत्र नरेश महोदय अग्रे पठतु महोदय नरेश महोदय गौरवः इति
चतुर्थे दिने तु श्रावणपूर्णिमा अतः सर्वैः परस्परं रक्षासूत्रं बध्यते पञ्चमे दिने अष्टमवर्गस्य छात्रैः तत्र तत्र वीथिनाटकं प्रदर्श्यते
समीचीनमस्ति यतोहि अद्य एव तत्र श्रावणपूर्णिमा अस्ति खलु
सत्यं
उत्तममस्ति अस्तु सूर्यकुमारी भगिनी भवती अग्रे तत्र पङ्कजा इति
षष्ठीदिने सर्वैः छात्रैः शोभायात्रा क्रियते तदर्थं केन वस्तूनि सङ्गृह्यन्ते केन फलकानि लिख्यन्ते केन कुत्र नेतृत्वं विधीयते इत्येवं सर्वं निश्चेतव्यं
नमस्कारः महोदय
लक्ष्मी भगिनी नमस्कारः भगिनी हा तत्र वयं तत्र सप्तदशाधिकशततमे पुटे स्मः भगिनि कर्मणि प्रयोगः रघुपतिमहोदय अग्रे
साधु साधु यदि सर्वे मिलित्वा निश्चीयते तर्हि
तदैव क्रियते
समग्रकार्यक्रमः केन निरुह्यते
मया मञ्चः अलङ्क्रियते मया सर्वाणि अपेक्षितानि वस्तूनि आनीयन्ते
इदानीं सूर्यकुमारी भगिनी अग्रे
आवाभ्यां कार्यक्रमार्थं छात्राः सज्जीक्रियन्ते
भवती एव अग्रे हा पङ्कजा इति हा
रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षकया साहाय्यं क्रियते किम्
लक्ष्मी भगिनी पठति वा अस्तु
अस्तु धन्यवादः महोदय अस्तु लक्ष्मी भगिनी भवती अस्ति वा तत्र पुटसङ्ख्या अस्तु भगिनि अतः तत्र अन्तिमपरिचयं प्रधानाचार्यः इति अस्ति खलु
अहं न प्राप्तवती अहं पूर्वं पुटसङ्ख्या अहं पश्यन्
17 पुटे भगिनि कर्मणि प्रयोगः इति
पठानि वा
पठतु
अस्तु पठतु महोदय
निश्चयेन क्रियते संस्कृतकार्यक्रमाय तस्याम् अपि महान् उत्साहः दृश्यते एव तदर्थं मया सा सूच्यते अस्माभिः सर्वैः ज्ञायते एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि तस्मात् सवैभवं कार्यक्रमः आचर्यते अद्यत्वे संस्कृतेन कृताः कार्यक्रमाः जनैः श्लाघ्यन्ते प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृत अनुरागिभ्यः च मया आमन्त्रणं प्रेष्यते केचन प्रतिष्ठिताः अपि विशेषेण आहूयन्ते तेषां पुरतः चिताः सांस्कृतिककार्यक्रमाः प्रस्तूयन्ते अन्ते च पुरस्काराः प्रदीयन्ते प्रतीकचिह्नानि प्रमाणपत्राणि च वितीर्यन्ते वयं सर्वे सम्भूय संस्कृतसप्ताहम् आचराम कार्यक्रमं यशस्विनं च कुर्याम
इति तावदेव अस्ति बहु समीचीनं धन्यवादः
अद्य संस्कृतदिवस् अपि अस्ति
समीचीनं अतः तत्र उत्तमः पाठः अस्ति खलु एतस्य पाठस्य कृते दिनमपि उचितम् लक्ष्मी भगिनी प्राप्तवती वा
पुटसङ्ख्या
116-117 भगिनी अष्टादश अध्यायः अस्तु इदानीम् अस्तु इदानीं तत्र मूलविषयः अस्ति तत्र कर्मणि प्रयोगः इति अतः तत्र यत्र यत्र कर्मणि प्रयोगः अस्ति तत्र किञ्चित् सावधानेन द्रष्टव्यमस्ति अस्माभिः अस्तु लक्ष्मीभगिनी भवती तत्र पूर्वं जानाति खलु तत्र कर्मणि प्रयोगस्य अंशाः के इति तत्र साधारणतया तत्र सूत्रम् इति वदन्ति तत्र किं कर्तृप्रयोगे तत्र सूत्रमस्ति तत्र एकं द्वे एकं जानन्ति वा कोऽपि एकं द्वे एकम् इत्युक्ते
न जानामि
हा कर्तृप्रयोगे सूत्रमस्ति एकं द्वे एकम् अपि कर्मणि प्रयोगे सूत्रमस्ति त्रीणि एकम् एकम् अतः नाम
प्रथमा
हा नाम कर्तृप्रयोगे एकं द्वे एकं नाम एकम् इत्युक्ते कर्म कर्तृपदं प्रथमाद्वि विभक्तौ विभक्त्यन्तं कर्मपदं द्वितीयाविभक्त्यन्तम् अपि क्रियापदं तत्र एकं किमर्थम् इत्युक्ते तद् क्रियापदं कर्तृपदम् अनुसरति इति अतः तत्र एकं द्वे एकम् इति उच्यन्ते तत्र कर्तृप्रयोगे सूत्रमस्ति एकं द्वे एकम् कर्मणि प्रयोगे सूत्रमस्ति तत्र त्रीणि एकम् एकं यतोहि कर्तृपदस्य तृतीयाविभक्त्यन्तं कर्मपदस्य प्रथमाविभक्त्यन्तम् अपि क्रियापदं कर्मपदम् अनुसरति कर्मणि प्रयोगे कर्मपदस्य प्राधान्यं कर्तृप्रयोगे कर्तृपदस्य प्राधान्यम् इति अस्ति सूत्रम् अस्तु इदानीं तत्र पश्यामः तत्र किं किम् अस्ति इति अतः तत्र लक्ष्मी भगिनी भवती एव आरम्भं करोति वा तत्र कश्चन प्रधानाचार्यः इति ततः
कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य सः विद्यालये
महती आसक्तिः तस्य तत्र अस्ति अस्ति इति अथवा आसीत् इति तत्र न दत्तं, किन्तु महती आसक्तिः. महती किमर्थं?
महती महान्
आसक्तिः.
हा, आसक्तिः इति स्त्रीलिङ्गपदम्.
स्त्रीलिङ्गपदम् अतः महती.
हा, अतः महती इति अस्ति. अपि किमर्थं तत्र कार्यक्रमेषु इति सप्तमी अस्ति तत्र? किमर्थं सप्तमी?
आसक्तिः.
हा, आसक्तिः, विश्वासः, अभिरुचिः तत्र
कार्यक्रमेषु अस्ति.
हा, विषयसप्तमी तत्र कस्मिन् विषये, कस्मिन् विषये इति. समीचीनं. हा, अतः संस्कृतकार्यक्रमः इति विषये अथवा क्रमाः कार्यक्रमाः इति विषयेषु तस्य आसक्तिः अस्ति. समीचीनं. हा, अग्रे.
सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति.
हा, सः किं किं करोति इदानीं? तत्र प्रथमक्रिया किम् अस्ति तत्र? सः
चर्चां करोति.
हा, तत् द्वितीयक्रिया अस्ति. प्रथमक्रिया किं किमस्ति?
आहूय.
हा, आहूय, आह्वयति. प्रथमतया आह्वयति. हा, अध्यापकानाम् एकां गोष्ठीम् आहूय, नाम सर्वान् अध्यापकान् तत्र आहूय, आहूय गोष्ठीं कृत्वा तत्र गोष्ठीम् आहूय, तदनन्तरं किं करोति तत्र?
कार्यक्रमाणां सन्दर्भे चर्चां करोति.
हा, कार्यक्रमाः के के सन्ति इति तस्मिन् विषये चर्चां करोति सः प्रधान आचार्यः. अस्तु, समीचीनम्. हा, इदानीं अग्रे सः तस्य प्रथमवाक्यं पठतु भगिनि अग्रे.
प्रधानाचार्यः संस्कृतसप्ताहस्य आचरणावसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते.
हा, इदानीं तत्र कर्मणि रूपं वा कर्तृरूपं वा एतत्?
कर्मणि, क्रियन्ते इति अस्ति.
हा, क्रियन्ते इति अस्ति. समीचीनं. हा, इदानीं तत्र
अस्माभिः क्रियन्ते.
अस्माभिः क्रियन्ते, समीचीनम्. हा, कर्तृपदम् अस्माभिः, क्रियापदं क्रियन्ते इति अस्ति. समीचीनम्. अपि तत्र कर्मपदं किम् अस्ति?
कार्यक्रमाः
क्रियन्ते. तत्र क्रियन्ते इति बहुवचने अस्ति, किमर्थम्? अस्माभिः अस्ति इति कृत्वा क्रियन्ते. हा, समीचीनं. हा, कर्मपदं बहुवचने अस्ति, समीचीनं. हा, इदानीं तत्र लघुवाक्यं वदतु. तत्र केवलं कर्तृपदं, कर्मपदं, क्रियापदम्. अस्माभिः कार्य इदानीं कर्तृपदं स्थापितं, कर्मपदं किम्?
अस्माभिः बहवः कार्यक्रमान्
क्रमाः न अस्माभिः बहवः कार्यक्रमाः क्रियन्ते. यत् यदस्ति तस्मिन्नेव अन्तर्भूतः लघुवाक्यं, तावदेव. अनेकाः अंशाः सन्ति, किन्तु केवलं लघुवाक्यं, यतोहि तत्र कर्मणि रूपं किम् अस्ति इति ज्ञातुं शक्नुमः. अतः तत्र अस्माभिः कार्यक्रमाः अथवा बहवः कार्यक्रमाः क्रियन्ते इति. समीचीनं. हा, इदानीं तत्र यदि तत्र कर्तृप्रयोगरूपम् इच्छामः तत्र किं भवति? तत्र
वयं कार्यक्रमान् कुर्वन्ति.
वयम् इति अस्ति. सः करोति, अहं करोमि, वयं
कुर्मः
इति. समीचीनं. हा, इदानीं तत्र यदि तत्र कर्मणि रूपम् अस्ति, तत्र कर्तृरूपं स्थापितुम् इच्छामः, तत्र तत्र शब्दानां परिवर्तनं भवति अस्मिन् वाक्ये? तत्र संस्कृतसप्ताहस्य तत्र परिवर्तनम् अस्ति वा? न. अस्तु, आचरणावसरे तत्र
न.
अस्माभिः
परिवर्तनं भवति.
हा, तत्र वयम् इति अस्ति.
वयं
प्रति इति भवति. प्रतिवर्षं
न.
न, अस्तु इदानीं बहवः कार्यक्रमः इति स्थाने किं भवति
कार्य तद् कार्य
परिवर्तनम् अस्ति तत्र समीचीनं कार्यक्रमः इति स्थाने कार्यक्रमान् इति बहवः इति स्थाने
बहवः
पुल्लिङ्गे बहून्
बहून्
बहून् बहून् कार्यक्रमान् कुर्मः
कार्यक्रमान् कुर्मः
कुर्मः इदानीं तत्र कर्तृरूपम् एकवारं वदतु
संस्कृतसप्ताहस्य आचरणावसरे वयं प्रतिवर्षं बहून् कार्यक्रमान् कुर्मः
कुर्मः समीचीनं भगिनि हा अस्तु उत्तमं हा इदानीं तत्र वयं प्रतिवर्षं बहून् कार्यक्रमान् कुर्मः कस्मिन् समये आचरणसमरे आचरणसमये तत्र सन्दर्भे किमपि आचरामः तस्मिन् समये अवसरे आचरण अवसरे कस्य आचरणं तत्र संस्कृतसप्ताहस्य आचरण तस्मिन् अवसरे वयम् एतत् सर्वं कुर्मः अतः तत्र संस्कृतसप्ताहः इदानीम् आगच्छति अतः तत्र तस्मिन् समये वयं बहून् कार्यक्रमान् कुर्मः प्रतिवर्षं कुर्मः अस्मिन् वर्षे अपि वयं कुर्मः इदानीम् अग्रे अस्मिन् वर्षे अपि
कार्यक्रमाः क्रियन्ते खलु
हा कार्यक्रमाः क्रियन्ते खलु नाम अस्माभिः क्रियन्ते खलु नाम वयमपि कुर्मः अस्मिन् वर्षे अपि इति सः पृच्छति अस्तु समीचीनं हा अतः तत्र वयम् अस्मिन् वर्षे अपि वयं कार्यक्रमान् कुर्मः खलु इति
कुर्मः खलु
इति प्रश्नः समीचीनं भगिनि उत्तमम् अस्तु अग्रे नरेश् महोदय
निश्चयेन श्रीमन् निश्चयेन तत्तु तृतीयविभक्ति श्रीमन् सम्बोधन अस्मिन्
महोदय तत्र निश्चयेन इति अव्ययम् अस्ति महोदय तत्र
अव्ययम् आम्
निश्चयेन इति निश्चयेन इति अव्ययम् अस्ति तत्र तृतीयविभक्त्यन्तम् अपि भवितुम् अर्हति किन्तु अत्र न
अत्र न आम् अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः
तत्र सज्जीकृताः इति अस्ति तत्र तत् कर्तृपदं वा अथवा किं अत्र क्रियापदं किम् अस्ति अत्र क्रियापदं साक्षात् क्रियापदं किम् अस्ति
अस्ति
न न अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः कृतः इति स्थाने महोदय कृतवान् इति चिन्तयतु
कृतवन्तः
हा इति चिन्तयतु साक्षात् तत् नास्ति किन्तु कृतवन्तः इति चिन्तयतु तत्र किं भवति तत्र सन्ति इति वचनं केवलं वचनं किम् इति उद्दिश्य अतः तत्र छात्राः सज्जीकृताः सन्ति छात्राः सन्ति ते कीदृशाः छात्राः सज्जीकृताः छात्राः कस्मिन् वर्गस्य तत्र कस्य वर्गस्य छात्राः पञ्चमवर्गस्य छात्राः सज्जीकृताः नाम ते सज्जाः सन्ति तत्र सज्जीकृताः नाम अन्य कोऽपि तत्र तेषां तत्र ते सज्जाः सन्ति न वा इति तत्र कारितवन्तः अतः तत्र सज्जीकृताः ते छात्राः किं कर्तुं
कार्यक्रमाय
कार्यक्रमाय इति विभक्ति का तत्र
चतुर्थी
चतुर्थी अस्ति चेत् तत्र किं भवति तत्र धानम् अथवा किमर्थम् इति खलु किं कर्तुं अतः तत्र कार्यक्रम इति तत् कर्तुं कार्यक्रमं कर्तुम् अथवा कार्यक्रमाय ते सज्जीकृताः सन्ति। अपि कार्यक्रमः कस्मिन् दिने भवति?
प्रथमदिनस्य
कार्यक्रमः यः अस्ति तस्मै कार्यक्रमाय ते छात्राः सज्जीकृताः सन्ति। समीचीनम्, अस्तु, अग्रे।
विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ललाटे तिलकं धार्यते।
हा, इदानीं तत्र तैः इति कैः? तैः नाम
छात्राः
इति स्थाने तत्र इदानीं तैः इति अस्ति। तैः छात्रैः किं क्रियन्ते?
सर्वेषां ललाटे तिलकं धार्यते।
तिलकं धार्यते, हा, तत्र ते तिलकं धारयन्ति अथवा धार्यते, तिलकं धार्यते, तैः धार्यते ललाटे, सर्वेषां ललाटे तिलकं धार्यते। कुत्र स्थित्वा छात्राः कुत्र स्थित्वा एतत् सर्वं कुर्वन्ति अथवा तैः एतत् सर्वं क्रियते?
मार्गे स्थित्वा,
हा, मार्गे,
हा,
विद्यालयस्य पुरतः मार्गे स्थित्वा, मार्गे एव स्थित्वा तैः एतत् सर्वं तत्र तिलकं धार्यते। अपि अन्यत् किम्?
संस्कृतसप्ताहस्य शुभाशयः शुभाशयाः उच्यन्ते।
हा, शुभाशयाः अस्ति बहुवचने, अतः उच्यन्ते इति अस्ति। समीचीनम्, हा, इदानीं तत्र तिलकं धार्यते तत्र तैः, तत्र लघु कर्मणि प्रयोगवाक्यं किम् अस्ति? धार्यते,
तैः तिलकं धार्यते,
तैः तिलकं धार्यते। समीचीनम्, इदानीं तत्र तैः नाम छात्रैः, छात्रैः तिलकं धार्यते इति तत्र कर्तृरूपं वदतु इदानीं।
ते तिलक ते तिलकं धारयन्ति
धारयन्ति। समीचीनं महोदय, हा, ते तिलकं धारयन्ति। इदानीं तत्र ते अपि तत्र शुभाशयाः उच्यन्ते, तत्र पुनः लघुवाक्यं किम् अस्ति? तैः
तैः शुभाशयाः उच्यन्ते,
हा, इति कर्मणि रूपम्। इदानीं कर्तृरूपं किम् अस्ति तत्र?
ते शुभाशयाः उच्यन्ति न
वदन्ति इति, अस्तु, समीचीनं। तत्र ते छात्राः तत्र शुभाशयाः इति, तत्र शुभाशयाः इति एव भवति वा अथवा रूपपरिवर्तनं भवति वा तत्र?
शुभाशयान् वदन्ति,
हा, यतोहि तत्र आशयः आशयः इति पुल्लिङ्गे अस्ति खलु।
द्वितीयविभक्ति शुभाशयान् वदन्ति,
हा, शुभाशयान् वदन्ति। समीचीनं महोदय, हा, तादृशमेव अस्ति, समीचीनं, हा, अस्तु, हा, अतः तत्र शुभाशयान् छात्राः शुभाशयान् वदन्ति, हा, समीचीनम्, अस्तु, अग्रे लक्ष्मी सूर्यकुमारी भगिनी, अग्रे।
महोदय, प्रधानाचार्यः, समीचीनम् एतत्, अभयवर्य भवता किं चिन्त्यते? अभयवर्य सम्बोधनमस्ति, भवता किं चिन्त्यते? भवता तृतीयविभक्ति चिन्त्यते, कर्मपदं नास्ति।
भवता किं चिन्त्यते तत्र तत्र किं किम् अस्ति? भवता किं चिन्त्यते तत्र क्रियापदं किम् अस्ति तत्र?
चिन्त्यते,
चिन्त्यते. अस्तु, कर्तृपदं किम् अस्ति अस्मिन् वाक्ये? हा, भवता, भवता इति कर्तृपदं, तत्र भवता इति कर्तृपदं, साक्षात् कर्तृपदं तदेव अस्ति इत्युक्ते तृतीयविभक्त्यन्तम् अस्ति खलु. हा, अपि कर्मपदम् अस्ति वा अत्र?
प्रश्नात् किं
किं, तत् कर्मपदम् अस्ति खलु. हा, भवता किं चिन्त्यते हा इति. इदानीं तत्र कर्तृरूपं वदतु.
भवान् किं चिन्तयति?
हा, भवान् किं चिन्तयति, समीचीनं भगिनी. हा, तावदेव अस्ति. हा, भवान् किं चिन्तयति. अस्तु, अग्रे.
द्वितीयदिने मया क्रीडा स्पर्धा आयोज्यते.
आयोज्यते,
आयोज्यते.
तत्र द्वितीये दिने मया गीतास्पर्धा आयोज्यते इति अस्ति. तत्र केवलं लघुवाक्यं वदतु, कर्मणि प्रयोग लघुवाक्यं वदतु.
मया गीतास्पर्धा आयोज्यते.
हा इति समीचीनं. हा, इदानीं तत्र कर्तृरूपं वदतु तत्र.
अहं गीतास्पर्धा
गीतस्पर्धाम्
आयोजयामि.
आयोजयामि,
आयोजयामि.
हा, आयोजयामि. हा, समीचीनम्. अहम् आयोजयामि किं? गीतास्पर्धाम् आयोजयामि. गीतास्पर्धाम् आयोजयामि, गीतास्पर्धम् इति अस्ति तत्र प्रथमपुरुषे अस्ति, अतः गीतास्पर्धा आयोज्यते.
स्त्रीलिङ्गपदम्.
स्त्रीलिङ्गपदं, समीचीनं भगिनि. हा, इदानीं तत्र पूर्णवाक्यं वदतु, कर्तृरूपं.
द्वितीयदिने अहं गीतास्पर्धाम् आयोजयामि.
आयोजयामि इति समीचीनं. हा, अस्तु, अग्रे.
तस्मिन् कार्यक्रमे कहि कहि भागः गृह्यते?
हा, तस्मिन् कार्यक्रमे कैः कैः भागः गृह्यते नाम तत्र पुनः तत्र कैः कैः इति एव तत्र एकः एव स्वीकरोतु, तत्र कैः इति स्वीकरोतु. इदानीं तत्र लघु कर्मणि वाक्यं वदतु. कैः, न न, कर्मणि रूपं प्रथमतया लघुवाक्यं वदतु. गृह्यते, समीचीनं. कैः भागः गृह्यते. हा, इदानीं तत्र कैः गृह्यते इति अस्ति, कैः भागः गृह्यते. इदानीं कर्तृरूपं किं भवति?
कर्तृरूपं के,
के
भागं गृह्णन्ति.
गृह्णन्ति,
गृह्णन्ति,
गृह्णन्ति खलु, गृह्णाति, गृह्णीतः, गृह्णन्ति इति अस्ति खलु. हा, अतः तत्र इदानीं तत्र के इति, कैः इति स्थाने के इति अभवत्, इदानीं कैः कैः स्थाने किं भवति?
के के,
के के. हा, इदानीं पूर्णवाक्यं वदतु कर्तृरूपप्रयोगे.
के के, के के,
न न, तस्मिन् तस्मिन् कार्यक्रमे,
तस्मिन् कार्यक्रमे के 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 भागं
गृह्णन्
गृह्णन्ति,
गृह्णन्ति. तस्मिन् कार्यक्रमे के के भागं गृह्णन्ति, अथवा तस्मिन् कार्यक्रमे कैः कैः भागः गृह्यते. हा, समीचीनं भगिनि. अस्तु, इदानीं तत्र अग्रिममपि तत्र करोति वा तत्र?
षष्ठवर्गस्य छात्रैः समूहगीतं प्रस्तूयते. षष्ठवर्गस्य छात्रैः सुलभवाक्यं छात्रैः समूहगीतं प्रस्तूयते. समूहगीतं कर्मपदं, कर्तृप्रयोगे छात्राः समूहगीतं प्रस्तायन्
षष्ठवर्गस्य छात्रैः इति स्थाने किम् अस्ति
छात्रः
वा तत्र वचनं किम्
छात्रैः बहुवचनं महोदय
अतः तत्र प्रथमविभक्तिरूप
छात्रः छात्रे छात्राः
छात्राः छात्राः छात्राः समूहगीतं हा एतत् प्रायश तत्र स्तुवन्ति इति अस्ति हा स्तूयते स्तुवन्ति प्रस्तूयते नाम प्रस्तुवन्ति स्तुवन्ति तत्र स्तुतिं कुर्वन्ति इति तत्र हा तादृशं तत्र प्रस्तुवन्ति इति प्रस्तुवन्ति इति प्र इति उपसर्गः स्तुवन्ति प्रस्तूयते
स्तुवन्ति महोदय
हा स्तुवन्ति इति किन्तु उपसर्गः अस्ति तत्र प्र इति प्रस्तुवन्ति समीचीनं भगिनी अस्तु रघुपतिमहोदय अग्रे
हा महोदय एकवारं हा सप्तमवर्गस्य छात्रैः देशभक्तिगीतं गीयते इति अस्ति गीयते इति अस्ति इदानीं कर्तृत्वे भवति प्रथमवर्गस्य छात्राः
सप्तमवर्गस्य
सोरि एकवारं सप्तमवर्गस्य छात्राः देशभक्तिगीतं गायन्ति
समीचीनं हा समीचीनम् अग्रे
गायति
गीयते इति स्थाने
गायन्ति
गीयते यतोहि तत्र कर्मपदम् एकवचने अस्ति गायन्ति यतोहि कर्तृपदं
छात्राः
छात्राः इति समीचीनं महोदय
द्वितीयभक्तिरूपं
समीचीनं महोदय अग्रे
ये दिने संस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यन्ते खलु अस्तु तृतीये विज्ञानप्रदर्शिनी आयोज्यते खलु अस्तु तृतीयदिने संस्कृतभारती विज्ञानप्रदर्शिनीम् आयोजयति खलु
हा संस्कृतभारती विज्ञानप्रदर्शिनीम् आयोजयति खलु इति समीचीनं हा अतः तत्र संस्कृतभारती इति कर्तृपदं समीचीनं महोदय
विज्ञानप्रदर्शिनी इति एकवचने अत्र द्वितीयविभक्ति प्रदर्शिनीम् आयोजयति
समीचीनं महोदय अग्रे
आं श्रीमन् अत्र चतुर्थे दिने तु श्रावणपूर्णिमा अस्ति अतः सर्वे परस्परं रक्षासूत्रं बध्यते
सर्वैः
परस्परं रक्षासूत्रं बध्यते अस्तु अतः सर्वे परस्परं रक्षासूत्रं बध्नाति
बध्नन्ति बध्नन्ति समीचीनं महोदय
सर्वे इति सर्वे
सर्वे भवति समीचीनं
बध्नन्ति सर्वे बध्नन्ति किं बध्नन्ति रक्षासूत्रं परस्परम् इति पञ्चमे दिने अष्टमवर्गस्य छात्रैः तत्र वीथिनाटकं प्रदर्श्यते अस्तु अत्र पञ्चमे दिने अष्टमवर्गस्य छात्राः तत्र वीथिनाटकं प्रदर्शयन्ति
हा वीथिनाटकं नाम वीथि नाम मार्गः तत्र
मार्गः वीथिनाटकः
स्ट्रीट् प्ले इति
वीथिनाटकं
नाटकमेव खलु महोदय नपुंसकलिङ्गे नपुंसकलिङ्गे अतः नाटकम् एव अस्तु समीचीनम् अस्तु अग्रेपि करोति वा महोदय पङ्कजयती
षष्ठे दिने सर्वैः छात्रैः शोभायात्रा क्रियते अस्तु तत्र क्रियते इति अस्ति यत् षष्ठे दिने सर्वे छात्राः शोभायात्रां कुर्वन्ति
शोभायात्रां कुर्वन्ति समीचीनं
तदर्थं केन वस्तूनि सङ्गृह्यन्ते इति अस्ति. तदर्थं के अस्तु के अस्तु अत्र के
केन केन महोदय केन
क्षम्यताम् अत्र केन इत्यत्र अस्तु. तदर्थं केन वस्तूनि सङ्गृह्णन्ति के अत्र केन इति अस्ति खलु अतः केन वस्तूनि सङ्गृह्णन्ति अस्तु वस्तूनि सङ्गृह्णन्ति सङ्गृह्यन्ते अतः तदर्थं कः कः वस्तूनि सङ्गृह्णाति
हा कः वस्तूनि सङ्गृह्णाति तदर्थं नाम शोभायात्रा यात्रार्थं
शोभायात्रार्थं कः वस्तूनि सङ्गृह्णाति
सङ्गृह्णाति इति समीचीनं हा अग्रे
केन फलकानि लिख्यन्ते कः फलकानि लिखति केन कुत्र नेतृत्वं विधीयते इत्येवं सर्वं निश्चेतव्यं कः कुत्र नेतृत्वं विधीयते इति विधीयते इति अत्र विधीय नेतृत्वं वहति वा इति विधीयते विधीयति वा
हा तत्र प्रायशः तत्र हा विधि विधीयति विधीयति इति अस्ति विधीयति इति
विधीयति इति एवं सर्वं सर्वं अस्तु अत्र निश्चेतव्यमस्ति खलु महोदय तत्र निश्चेतव्यम् इति सर्वं
हा निश्चेतव्यं तत्
इति अस्माभिः निश्चेतव्यं
हा सत्यं महोदय तत्र किन्तु निश्चयं कुर्मः समीचीनं महोदय समीचीनं हा
कर्मणि प्रयोगे अस्ति निश्चेतव्यं
कर्मणि हा
कर्मणि एव सर्वदा
सत्यं महोदय हा किन्तु तत्र महोदय किन्तु सत्यमेव तत्र तत्रापि कर्मणि अस्ति किन्तु तत्र वर्तमानकालरूपं नास्ति इति कृत्वा तत्र न तत्र स्थूलं रूपं नास्ति तस्य यत् यथा तत्रापि तत्र सज्जीकृताः इति अस्ति खलु तत्रापि तत्र प्रायशः तत्र तदपि कर्मणि इति वक्तुं शक्नुमः किन्तु तत्र लट्लकारे नास्ति इति कृत्वा हा तत् खलु हा अस्तु समीचीनं महोदय अत्र तत्र कः कुत्र
किं महोदय
किं भगिनि
अन्तिमरूपं किं कर्तृप्रयोगे
किं भगिनि
कः कुत्र
अन्तिमं
विधीयति इत्येवं सर्वं निश्चेतव्यं
विधीयति विधीयति इति मन्ये भगिनि तत्र धी इति लघु इकारः वा दीर्घ इकारः वा इति न जानामि
मन्यता लघु अस्ति चेत् दीर्घः भवति कर्मणि तत्र
अतः अतः तत्र कर्तृप्रयोगे तत्र ह्रस्व ह्रस्व इकारः इति चिन्तितवान् खलु महोदय
आमां सत्यं तत्र द्रष्टव्यं कः धातुः कः एक तत्र
विधीयति इति चिन्तयामि भगिनि हा विधि द तत्र महाप्राणः दकारः नेतृत्वं हा नेतृत्वं
तत्र दी अत्र महोदय धीयति महोदय धीयति इति भवेत्
ओ अतः दी दीर्घ इकारः वा
धी इति धातुः अस्ति महोदय न जानामि शब्दादिगणे धातुः अस्ति धीयति इति टु पोसेस् टु होल्ड् धारणे इति तदेव प्रायः अत्र प्रायः तेन उपसर्गेण तत्र विधीयते इति धी इति धातुः अस्ति अतः धीयते इति भवति कर्मणि प्रयोगे सर्वदा तत्र इकार उकारस्य दीर्घः भवति खलु
सत्यं सत्यं कर्मणि प्रयोगे सत्यं
प्रायः इति धीय विधि विधि
हा तत्र ह्रस्वैकारः ह्रस्वैकारः विधीयते
विधीयति विधीयति भवति वा विधीयति भवति वा ह्रस्वैकारः भवति वा न
जानामि न
जानामि अन्यसूत्रम् अस्ति
सत्यं सत्यं
उपसर्गयोजनेन किमपि परिवर्तनं भवति चेत् अन्यथा न भवति विधीयति इति भवेत्
हा इति चिन्तनं अतः सूर्यकुमारी भगिनी तत्र
वहति इति अथवा
हा वहति इति समीचीनं
समीचीनमेव
भवति तत्र
नेतृत्वं वहति
सूर्यकुमारी भगिनी प्रश्नः कः
नेतृत्वं आत्मनेपदी वा
किम्
धातु दी धातु
न स्मरामि भगिनी तत्र किन्तु तत्र न न विधीयति इति परस्मैपदी धातु इति
परस्मैपदी सर्वदा यद् कर्मणि यत् यक् प्रत्यय कर्मणि प्रयोगे सर्वदा आत्मनेपदी एव भवति यत् मूले धीयति इति अस्ति परस्मैपदी अस्ति धी धातु
किन्तु सूर्यकुमारी भगिनी प्रश्नः तु उत्तमः यतोहि तत्र किं कर्तृरूपं जानीमश्चेत् तत्र धातु परस्मै वा आत्मनेपदी वा जानीमः तदनन्तरं परिवर्तनं कुर्मः सर्वदा आत्मनेपदी धातु एव प्राप्नुमः धातुमेव प्राप्नुमः किन्तु कर्मणि प्रयोगः एव रूपम् अस्ति चेत् तत्र धातुः परस्मै वा आत्मनेपदी वा न जानीमः यदि नूतनधातुः अस्ति चेत् खलु यतोहि केवलम् आत्मनेपदीरूपमेव दत्तमस्ति अतः तत्र आत्मनेपदी धातु वा परस्मैपदी धातु वा न जानीमः अस्तु समीचीनं धन्यवादः महोदय अस्तु गीताञ्जलि भगिनी नमस्कारः भवती कदा आगतवती न जानामि क्षम्यतां भगिनि
नमस्ते महोदय अधुना एव
आगतवती ओ अस्तु 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 समीचीनम् अस्तु
क्षम्यतां
महोदय चिन्ता मास्तु भगिनि तत्र वयं कुत्र स्म इत्युक्ते तत्र कर्मणि प्रयोगः इति अष्टादश अध्यायः अस्तु भगिनि अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा पुटसङ्ख्या अस्ति 117
साधु साधु यदि सर्वैः मिलित्वा निश्चीयते तर्हि सर्वैः मिलित्वा निश्चीयते यदि सर्वे मिलित्वा निश्चयन्ति
तत्र प्राश निश्चीयते तत्र निश्चिनोति इति प्राश अस्ति भगिनि सर्वे निश्चुन्वन्ति इति निश्चुन्वन्ति इति प्राश रूपम् अस्ति इति मन्ये
निश्चयन्ति नास्ति
निश्चयन्ति इति तद् नास्ति इति मन्ये महोदय न जन् पश्यतु
अत्र भिन्न भवति प्रायः निः निस् इति उपसर्ग ची इति धातु एव
चिनोति एव खलु महोदय
आमां ची धातु चिनोति इति अतः
निश्चिनोति निश्चिनोति इति निश्चुन्वन्ति इति रूपं निश्चुन्वन्ति इति प्रायशरूपं
सर्वे मिलित्वा निश्चिन्वन्ति तर्हि
तत्र सर्वे मिलित्वा निश्चुन्वन्ति तर्हि निश्चयं कुर्वन्ति इति अर्थः समीचीनं समीचीनं अस्तु अग्रे भगिनि
आम् अस्माभिः तथैव क्रियते
तथा एव अस्माभिः क्रियते क्रियते तत्र तदेव वयं अथवा वयं तदेव तथैव कुर्मः तथैव वयं कुर्मः तत्र कर्मपदं नास्ति तत्र तथैव वयं कुर्मः अग्रे
समग्रकार्यक्रमः केन निरुह्यते केन निरुह्यते निरुह्यते
तत्र निरुह्यते इत्युक्ते तत्र निर्वहति निर्वहति
निर्वहति
कः निर्वहति समीचीनं तत्र कर्मणि प्रयोगे तत्र रूपं दृष्ट्वा तत्र केवलं साधारणतया वदामः तत्र तत्र यकारः आगच्छति इति किन्तु तत्र अनेकाः तत्र विधाः सन्ति तत्र बकारः यत्र अस्ति कर्तृ धातौ बकारः अस्ति चेत् तत्र बकारस्य उकारः भवति इति एकः नियमः अस्ति अतः
परिगणितधातु नाम एव तत्र
किन्तु तत्र वहति इति स्थाने ऊहते इति ऊह्यते इति भवति खलु महोदय उकारः आगच्छति यकारस्य स्थाने इकारः हा तादृश
रकारः
हा रकारः एतत् अतः तत्र अतः तत्र उच्यते
गृहधातु अस्ति गृहधातु अस्ति गृह्यते इति उपरि वयं दृष्टवन्तः गृहधातु अस्ति गृहधातु अस्ति परन्तु रेफस्य स्थाने ऋकारः मूर्धन्यऋकारः भवति तत्रापि सम्प्रसारणमस्ति
तस्मिन्
कार्यक्रमे कैः कैः भागः गृह्यते गृहधातु अस्ति
सत्यं सत्यं सत्यम् अतः सत्यं सत्यं अतः तत्र
रिवर्स् अस्ति
सत्यं महोदय अतः तत्र किम् अतः तत्र कर्मणि प्रयोगः अत्र केवलं परिचयरूपेण दत्तम् इति चिन्तनीयम् अस्ति यतोहि तस्मिन् विषये तत्र बहु किमपि अस्ति किन्तु प्रथमवारं पश्यामः इति तत् अस्तु अतः तत्र किमस्ति तत्र निरूह्यते तत्र निर्वहति तत्र कर्तृरूपं वदतु भगिनि समग्रकार्यक्रमः केन निरूह्यते इति
निर्वहति
किं निर्वहति
समग्रकार्यक्रमं
समग्रकार्यक्रमं समग्र नाम सर्वम् इति तत्र समग्रकार्यक्रमं कः निर्वहति इति प्रश्नः तत्र उत्तरं किं मया नाम राजेन्द्रः भवति मया अथवा अहमेव तत्र समग्रकार्यक्रमं निर्वहति न अहम् इति अस्ति चेत्
निरुह्यते
मया निरुह्यते समग्रकार्यक्रमः मया निरुह्यते इदानीम् अहम् अस्ति चेत् तत्र अहं समग्रकार्यक्रमं
अहं निर्वहति
न निर्वहामि खलु अहं निर्वहामि कर्तृपदम् इदानीम् अहम् अस्ति इति अग्रे
तत्र निर्वहति इत्युक्ते अर्थः तु इत्युक्ते समापनं कथं करणीयमिति न महोदय
निर्वहति तत्र न निर्वहति इति तत्र वहति इति अर्थे एव भगिनि तत्र तस् निर्वहणं नाम तत्र रेस्पान्सिबिल् तत्र उत्तरदायित्वम् इति तादृश अर्थे अस्ति इति मन्ये केवलं समाप्तिः इति न तादृश अर्थे निर्वहति तत्र
इत्युक्ते यत्र निर् अस्ति निर् इति नै नै अर्थे नास्ति सर्वदा
न अत्र अत्र तु नास्ति भगिनि निर्वहति नाम तत्र तस्य उत्तरदायित्वम् अस्ति सः एव तत्र सर्वं करोति इति तत्र
अस्तु अस्तु अपि च निस् एव निर्भवति तत्र वा
द्वयमस्ति निर् निस् द्वयमस्ति तत्र प्रादयः
महोदय भिन्न अर्थः भिन्न अस्ति महोदय
निर् निस् अपि अस्ति खलु निर्वहणम्
अस्तु अर्थभेदः अस्ति वा तत्र
आं चिन्तयामः निर्वहणम् इति अन्यभाषायां तदेव अर्थे
तदेव अर्थे निर्वहणम् इति भगिनि तत्र भगिनी तत्र निदर्शनम् इति अस्ति तत्र नि इति अस्ति खलु
निर्दर्श दर्शनं नास्ति वा
तत् दर्शनं नास्ति खलु किन्तु तत्र नि इति तत्र निदर्शनं तत्र सः एव तत्र सर्वम् एतत् यः एषः एतत् करोतु एषः एतत् करोतु इति तादृश अर्थे किन्तु अत्र निर्वहति नाम एषः एव तत्र सर्वं कारयति इति तस्य उत्तरदायित्वम् अस्ति इति
अस्तु अस्तु किन्तु मम प्रश्नः महोदय निस् एव निर्भवति वा सन्धि भूत्वा
न निस् अपि अस्ति निर् अपि अस्ति खलु द्वयमस्ति प्रादे
अत्र प्रायः निर् एव अस्ति
दुर् निस् निर् दुस् दुर् इति अस्ति दुस् अपि अस्ति दुर् अपि अस्ति पश्य तत्र द्वाविंशति अस्ति खलु प्रादयः
अस्तु अर्थभेदः भवितुम् अर्हति निस् निर्वहति अपि च निर्वहति अर्थभेदः भवितुम् अर्हति तत्र महोदय?
निस्वहति इति अर्थः अस्ति वा इति दातव्यम्, अर्थः अस्ति वा, तादृशपदमस्ति वा इति
न जानामि. निस्वहति न दृष्टवान्. निर्वहति तत्र सर्वदा शृण्मः भगिनि तत्र. हा, निर्वहति.
अहं किमर्थं पृच्छामि, मम पार्श्वे एक पुस्तकमस्ति धातुकोशः मेधामिचिका इति कृतं. मेधामिचिका तत्र इत्युक्ते बहवः धातवः सन्ति, तत्र अर्थभेदः अस्ति वा न वा उपसर्ग
अस्ति, प्रयोजनं निष्प्रयोजनम् इति तत्र भिन्नमस्ति. न प्रयोजनं निष्प्रयोजनम् इति अस्ति. निष्कारणं कारणं निष्कारणं तद्भिन्नमस्ति. परन्तु निरनुबन्ध निरीति अत्र अतापि भवितुमर्हति. निर् इत्यनेन विदौट् अनुबन्ध निरनुबन्ध इति वदामः, परन्तु अत्र नास्ति. तत्र केवलं तत्र ते भिन्नभिन्न अर्थः भवितुमर्हति खलु तत्र.
हा, प्रयोग
भिन्नभिन्न अर्थः भवति खलु. वहति इति धातु अस्ति, वहति इति एकमस्ति प्रवाहः, नदी प्रवहति इति. वहति इति भारं वोढुं भवति. तत्र भिन्नभिन्न धातूनां भिन्नभिन्न अर्थाः भवन्ति खलु. अतः प्रायः एतत् भिन्न अर्थे अस्ति निर्वहणम् इति. तादृश एक एव अर्थः नास्ति खलु. इवन् प्रादीनामपि भिन्नभिन्न अर्थेषु भवति. एकस्य प्रादी उपसर्गस्य भिन्न अर्थः भवितुमर्हति. एक एव अर्थः नास्ति, भिन्नभिन्न अर्थाः भवन्ति, एक एव नास्ति.
पुस्तके महोदय निस् दत्तं, वह योजयित्वा निस् दत्तं, तदनन्तरम् अर्थ दत्तं, बि फर्निश्, लिव अपान्, लिव एट् बै दि एड् आफ्, टेक् टु दि एण्ड्.
हा, एतद् तद् नास्ति भगिनि, तद् नास्ति. एतद् निर्वहति इति भिन्नम् अस्ति, भिन्नम् अस्ति.
यद्यपि भवितुमर्हति निस् इति रकार सकारस्य निर्वेते भवति, परन्तु न जाने तत्र निर् अस्ति इदानीं प्रादि
हा. अत्र तु निर्योगः बह् दातु इति एव चिन्तनीयते. हा,
निस् निरते प्रपर अपसम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अप् नि अपि अस्ति, निस् अपि अस्ति, निर् अपि अस्ति. अत्र द्वाविंशति अस्ति खलु, अत्र निर् अपि अस्ति.
भगिनी तत्र पुस्तकं यत् भवती उक्तवती तत् किं, तत्र दयानन्दसरस्वतीस्वामिनः तत्र
सा एव लिखितवती महोदय.
हा,
पुस्तकले तत्र अहं दृष्टवान् कुत्र तत्र तत्र दोषः अपि अस्ति. पी डि एफ् मध्ये प्रथमप्रायः तत्र अन्तिम न जानीमः. तत्र यद् पुस्तके अस्ति चेत् समीचीनं भवेत्, परन्तु पी डि एफ् डौन्लोड् कृतवान् तत्र कुत्रचित् दोषाः अपि सन्ति.
अस्तु अस्तु अस्तु,
परन्तु एतद् अस्ति. तद् प्रादीनां भिन्नभिन्न अर्थाः भवन्ति तत्र. एक एव अर्थः नास्ति. आङ्ग् इति अस्ति, आङ्ग् मर्यादे अभिवृद्धि, आङ्ग् पर्यन्तम्, आ हिमालयात्, आ कन्याकुमारी इत्युक्ते फ्रम् टु इति भवति. आङ्ग् एक एव उपसर्गः अस्ति, रूपमस्ति.
भिन्नभिन्नार्थः भवति. यथा भगिनी तत्र यथा तत्र आङ्ग्लभाषायामपि तत्र एकमेव पदं स्वीकुर्मश्चेत् किन्तु सन्दर्भ अनुसृत्य अनेके अर्थाः भवन्ति खलु.
सत्यं सत्यं महोदय.
हा, तादृशमेव. किन्तु अत्र तु तत्र निर्योगः भधातुः इति अपि तत्र उत्तरदायित्वम् इति अर्थः तत्र. सः एव कारयति इति. हा, अस्तु भगिनि, अस्तु. हा, लक्ष्मी भगिनी अग्रे
पठामि. अभयः, मया मञ्चः अलङ्क्रियते. कर्मणि प्रयोगे, कर्तरि प्रयोगे अहं मञ्चम् अलङ्करोमि.
हा, अहं मञ्चम् अलङ्करोमि. समीचीनं भगिनि. अग्रिमपि करोतु.
मया सर्वाणि अपेक्षितानि वस्तूनि आनीयन्ते. अहं सर्वाणि अपेक्षितानि वस्तूनि
न न तत्र अहम् इति स्वीकरोतु. अहं तदनन्तरं क्रियापदं किं भवति? आन् अहं किम् आनयन्ति, आनयति अथवा आनयामि किं भवति?
आनयामि.
हा, अहम् आनयामि. किम् आनयामि?
सर्वाणि अपेक्षितानि वस्तूनि
अहं सर्वाणि अपेक्षितानि वस्तूनि आनयामि समीचीनं अहम् आनयामि यतोहि तत्र कर्तृप्रयोगे क्रियापदं किं पदम् अनुसरति कर्तृपदम् अनुसरति पुरुषे वचने किन्तु कर्मणि प्रयोगे तत्र क्रियापदं कर्मपदम् अनुसरति पुरुषे वचने अत्र वस्तूनीति अस्ति अतः आनीयन्ते इति अपि बहुवचने अस्ति अपि प्रथमपुरुषे अस्ति समीचीनं भगिनि अस्तु गीताञ्जलि भगिनी कर्तुम् इच्छति वा अग्रे
करोमि महोदय
अस्तु
मया न महोदय मया सर्वाणि
तत् कृतं भगिनि अग्रे आवाभ्याम् इति
पङ्कजा श्वेता अस्तु इति किम् अभवत् न जानामि
न चिन्ता मास्तु केवलं तत्र वाक्यं दृष्ट्वा वदतु भगिनि
महोदय प्रयत्नं करोमि आवाभ्यां कार्यक्रमार्थं छात्राः सज्जीक्रियन्ते
तत्र क्रियापदं किम् अस्ति
क्रियापदं तु अत्र तु सज्जीक्रियन्ते
कर्मणि रूपम् अस्ति सज्जीक्रियन्ते कर्मपदं किम् अस्ति
सज्जीकुर्वन्ति इति वा लट्
न अस्तु अस्तु तद् अग्रे इदानीं कर्मपदं किम् अस्ति
कर्मपदम् अस्ति कार्यक्रमार्थं
तत्र कर्मणि प्रयोगे तत्र सूत्रमस्ति किं त्रीणि एकं त्रीणि एकम् एकं तत्र कर्तृपदं तृतीयाविभक्त्यन्तं कर्मपदं प्रथमाविभक्त्यन्तं क्रियापदं कर्मपदम् अनुसरति
अनुसरति छात्राः इति
कर्मपदं समीचीनम् अपि कर्तृपदं किम् अस्ति अस्मिन् आवाभ्यां समीचीनम् इदानीम् आवाभ्याम् इति तृतीयाविभक्त्यन्तम् अस्ति प्रथमाविभक्त्यन्तं किम् अस्ति
अहं
न आवाभ्याम् इति
मया
न मया इति तत्र एकनिमिषः आवाभ्याम् इति अस्ति आवाभ्याम् इति तत्र विभक्ति का
अत्र
आवाभ्याम् इति विभक्ति का
तृतीयविभक्ति
द्विवचनं इदानीं तत्र प्रथमविभक्त्यन्तं भवति चेत् वचनं किं भवति समानद्विवचनमेव खलु
अस्तु अस्तु एकनिमिषमस्ति
तावदेव अहम् आवां वयम् आवाम् इति समीचीनं इदानीम् आवां तत्र छात्राः इति अस्ति तत्र प्राथमाविभक्त्यन्तम् अस्ति इति इदानीं द्वितीयाविभक्त्यन्तरूपं किं
छात्रान्
छात्रान् वयं न क्षम्यताम् आवां छात्रान् इदानीं छात्रान् इति कर्मपदमस्ति इदानीं सज्जीक्रियन्ते इदानीं सज्जी करोति इति चिन्तयतु किन्तु अत्र आवाम् इति अस्ति अतः रूपं किं भवति सज्जीकुरुतः न आवाम् इति अस्ति सः करोति तौ कुरुतः ते कुर्वन्ति किन्तु आवां कुरुतः न भवति खलु न अहं करोमि
आवां कुर्वः
इदानीं वाक्यं वदतु
अस्तु महोदय आवां छात्रान् कुर्वः
आवां कार्यक्रमार्थं छात्रान् सज्जी कुर्वः समीचीनं भगिनि उत्तमम् अस्तु अग्रिममपि करोति वा
मनः
वदतु महोदय
इदानीं दृष्टवान् निर् एव अस्ति आप्ते मध्ये तदेव अथेण्टिक् अस्ति अर्थात् द्वयमस्ति एकमस्ति टु क्यारि टिल् द एण्ड् द्वितीयमर्थमस्ति डिस्ट्रक्षन् अनिहिलेशन् अपि अस्ति अतः
अस्तु अतः तत्र क्यारि टिल् दि एण्ड् नाम तत्र डिस्ट्रक्षन् पर्यन्तम् इति
अतः निर् एव अस्ति यत् अट्टे मध्ये अस्ति अत् अपि च अन्यत् अपि अस्ति खलु यत् मोन्ट्रि मोनियर् विलियम्स् अस्ति निर्
मोनियर् विलियम्स्
निस् नास्ति निर् एव अस्ति परन्तु अर्थद्वयमस्ति एतत्तु वन् टु क्यारि द टिल् द एण्ड् अनदर् इस् डिस्ट्रक्षन् अनिहिलेशन् अपि अस्ति अतः अर्थदातो नाम भिन्नभिन्न अर्थाः भवन्ति
समीचीनं महोदय धन्यवादः वाक्यं तत्र निर्वहति इति तत्र अन्यः अर्थः अस्ति इति न ज्ञातवान्
सम्पूर्णं करोति इति अर्थः
संहारं करोति इति हा अस्तु
तत्र लोकभाषया अपि कुर्मः खलु सम्पूर्णं सम्पूर्णं कृतवान् इति अर्थे
भाषायां
व्यवहारे
अस्ति सत्यं सत्यं
फिनिश् एव्रिथिङ्ग् इति
महोदय महोदय तत्र अहं प्रेषयामि एक लिङ्क्
दृष्टवान्
96 मध्ये तत्र दत्तं भगिन्याः टेक् टु दि एण्ड् अपि अस्ति पासिटिव् तत्र अपि अस्ति
असमीचीनं तद् किमर्थम् इत्युक्ते आप्टे अथवा मोण्टे मोने विलियम्स् इति तत् अधिकृत अस्ति न तु मेधानिच्छिका
अस्तु समीचीनम् अस्तु हा अस्तु भगिनी भगिनी अग्रिममपि करोति वा तत्र गीतानाम् इति अग्रे हा
पङ्कजा गीतानां रागसंयोजनाय नृत्यनिर्देशनाय
पुनः निर् इति एव भवत्याः तत्र किं
निरायाति महोदय निर्दर्शनाय तत्र नृत्यनिर्दर्शनाय च सङ्गीतशिक्षिकया साहाय्यं क्रियते किम् पठामि गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षिकया साहाय्यं क्रियते किम्
हा इति दीर्घवाक्यम् अस्ति भगिनि इदानीं तत्र कर्मणि प्रयोगे अस्ति इति जानीमः अतः तत्र लघुवाक्यं कर्मणि प्रयोग
सङ्गीतशिक्षिकया साहाय्यं क्रियते
हा इति समीचीनं हा साहाय्यं क्रियते सङ्गीतशिक्षिकया साहाय्यं क्रियते इदानीं तत्र
प्रथमविभक्ति अपि च सङ्गीतशिक्षिकया तु तृतीया अस्ति
तत्र अस्ति समीचीनम् इदानीं समीचीनम् अतः सङ्गीतशिक्षिकया इति कर्तृपदम् अस्ति तत्र प्रथमविभक्तिं त्वं वदतु इदानीं कर्तृ
सङ्गीतशिक्षिका
हा
साहाय्यं तु
साहाय्यम् एव
तिष्ठति करोति किम्
करोति किं हा इदानीं हा इदानीं तत्र पूर्णवाक्यं वदतु यतोहि अन्यत्र किमपि परिवर्तनं न भवति खलु हा अतः
गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षिकया साहाय्यं क्रियते किम् इति ओ सोरि अहो लट् अस्ति चेत् गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षिका साहाय्यं करोति किम्
हा इति इदानीम् अस्तु समीचीनम् इदानीं तत्र सा शिक्षिका सङ्गीतशिक्षिका अस्ति सा साहाय्यं करोति किम् इति प्रश्नः तत्र किं कर्तुं साहाय्यं करोति इति प्रश्नः अतः किं कर्तुम्
इत्युक्ते रागसंयोजनाय अपि च नृत्यनिर्देशनाय इत्युक्ते
हा तत्र निर्देशनं कर्तुं नृत्यस्य निर्देशनम् अपि रागस्य
संयोजनं
तत्र केषां रागस्य तत्र अपि नृत्यन् इत्युक्ते तत्र गीतानां रागसंयोजनाय अपि नृत्यस्य निर्देशनाय
करोति किम्
इति हा तत् तत्र नृत्यं भवति तत्र सङ्गीतम् अपि भवति तत्र रागमपि समीचीनं भवेत् अपि नृत्यमपि समीचीनं भवेत् अतः तत्र सर्वं कर्तुं सा शिक्षिका सङ्गीतशिक्षिका या अस्ति सा साहाय्यं करोति वा अथवा करोति किम्
मम विद्यालये अपि सा एव सर्वं कृतवती
इति वा भगिनि अस्तु 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 समीचीनं हा अस्तु भगिनि हा समीचीनम् अस्ति हा तत्र यदि कोऽपि सङ्गीतं सङ्गीतज्ञानं प्राप्नोति हा तत्र सर्वेषां लाभः ये अस्ति समीचीनं भगिनि अस्तु अस्तु इदानीं तत्र अग्रे सरामः तर्हि तत्र अग्रे तत्र हा दीर्घपरिच्छेदः अस्ति अतः तत्र भागं भागं कृत्वा किञ्चित् किञ्चित् पठामः तर्हि तत्र लक्ष्मी भगिनी अग्रे ओ भगिनी भवती पूर्वं पठितवती खलु तत्र अस्तु अस्तु तत्र हा नरेश महोदय अग्रे
महोदय निश्चयेन क्रियते अत्रापि क्रियते तत् कर्मणि प्रयोगः अस्ति निश्चयेन तु अव्यये अस्ति
अव्ययमस्ति किन्तु तत्र निश्चयेन क्रियते इति तत्र अन्वयः कुत्र अस्ति तत्र निश्चयेन क्रियते इति अर्थः कः तत्र
कुर्मः
न न तस्मात् तत्र यत् वाक्यं तस्मात् प्राक् अस्ति तत् पश्यतु पङ्कजा किं पङ्कजा किं पृच्छति
सा पृच्छति सङ्गीतशिक्षकया सहायं क्रियते किं
प्रधानाचार्य
प्रधानाचार्य वदति निश्चयेन क्रियते
लघुवाक्यम् इदानीं तत्र कर्मणि रूपमेव वदतु किन्तु पूर्णवाक्यं वदतु इदानीं
सङ्गीतशिक्षिका
शिक्षिकया शिक्षिकया
शिक्षिकया सहायं क्रियते
निश्चयेन निश्चयेन इति उत्तरं समीचीनं महोदय हा अतः तत्र निश्चयेन क्रियते नाम तत्र साहाय्यं तया निश्चयेन क्रियते हा तत्र एतत् व्याकरणे बहुवारम् आगच्छति तत् किमस्ति तत्र अनुवृत्तिः इति नाम अस्ति वा महोदय तत्र अनुवृत्तिः तत्र हा रामः वदति अहम् आपणं गच्छामि लक्ष्मणः वदति अहमपि नाम अहमपि आपणं गच्छामि तादृशं तत्र क्रियते नाम साहाय्यं सा शिक्षिका सहाय शिक्षिकया साहाय्यं क्रियते निश्चयेन अग्रे
संस्कृतकार्यक्रमाय तस्याम् अपि महान् उत्साहः दृश्यते एव
हा एव हा इदानीं तत्र हा तत्र इदानीं तत्र लघुवाक्यं कर्मणि प्रयोग लघुवाक्यं वदतु
तस्याम्
अस्तु 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 हा इदानीं तत्र प्रायशः तत्र हा उत्साहः दृश्यते इति हा प्रायशः तत्र हा तत्र हा तत्र प्रायशः एतत् भावे प्रयोगः अस्ति भावे प्रयोगः अस्ति महोदय साक्षात्
न तत्र उत्साहः पश्यामि इति भवति खलु महोदय उत्साहं पश्यामि उत्साहं पश्यामि इति भवति वा
हा किन्तु महोदय तत्र कर्तृपदं नास्ति खलु महोदय अस्मिन् वाक्ये
न न प्रधानाचार्य वदति खलु सः वदति
ओ अस्तु अस्तु हा अस्तु तत् 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 स्वीकुर्मः अहम् अहम् अस्तु अस्तु मया मया दृश्यते इति स्वीकुर्मः अस्तु समीचीनं महोदय अस्तु हा अतः नरेश महोदय तत्र मया इति स्वीकरोतु मया महान् उत्साहः
परन्तु मया कथम्
यतोहि सः वदति सः वदति
अग्रिम अस्ति वाक्यमस्ति एतदर्थं मया सा सूच्यते इति अस्ति खलु अतः
तदर्थं मया सा सूच्यते इति हा
अतः मया तस्यां महान् उत्साहः दृश्यते इति भवति अतः एव अहं सूचितवान् इति
हा इति हा सत्यं हा वदतु महोदय नरेश महोदय
अत्र तु सङ्गीतशिक्षिकायां महान् उत्साहः दृश्यते
तदस्ति तदस्ति भगिनि तदस्ति महोदय सत्यमेव किन्तु तस्यामिति तु सप्तमविभक्तिरूपं खलु तत् कर्तृपदं नास्ति
कर्तृपदं तु नास्ति
अतः तत्र उत्साहः दृश्यते महान् उत्साहः दृश्यते महान् उत्साहः कर्मपदं किन्तु कर्तृपदं तृतीयविभक्तन्तं नास्ति किन्तु प्रधानाचार्यः वदति इति कृत्वा सः
तत्र
अहम् इति स्थाने मया इति अहं पश्यामि कर्तृरूपे कर्मणि प्रयोगे मया
मया महान् उत्साहः पश्यामि
न न न
दृश्यते
दृश्यते समीचीनं मया महान् उत्साहः दृश्यते अहं किं भवति अहं पश्यामि किं पश्यामि
महान् उत्साहः
न न न उत्साहं पश्यामि
उत्साहं पश्यामि
किन्तु महान् इति स्थाने किं भवति
महान्तं
महान्तं भवान् भवन्तं महान्तं महान्तम् उत्साहं पश्यामि इदानीं तावत् तदेव परिवर्तनम् अन्यत् किमपि परिवर्तितः न भवति अतः तत्र संस्कृतकार्यक्रमाय तस्यामपि
अहं तस्याम् अपि
महान्तं
महान्तम् उत्साहं
पश्यामि एव नाम अहं तस्यां तत्र शिक्षिकायाम् अहं महान्तम् उत्साहः पश्यामि उत्साहं पश्यामि महान्तम् उत्साहं पश्यामि एव तस्यां शिक्षिकायां किं कर्तुम् उत्साहः पश्यामि संस्कृतकार्यक्रमाय नाम संस्कृतकार्यक्रम अर्थम् अथवा संस्कृतकार्यक्रमर्थम् अथवा कर्तुम् अथवा कार्यक्रमाय उत्साहम् अस्ति इति उत्साहः अस्ति इति अहं पश्यामि अथवा तत्र महान्तम् उत्साहं तस्यां पश्यामि एव समीचीनम् अस्तु अग्रिममपि तद् सुलभतया करोतु तत्र तदर्थं मया सा
सूच्यते
अतः तदर्थं
अहं तां सूचयामि
सूचयामि समीचीनं महोदय हा तावदेव समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी
महोदय अस्माभिः सर्वैः ज्ञायते एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि
भवति अथवा अस्ति अपि इति हा इदानीं तत्र लघुकर्मणि प्रयोगवाक्यं वदतु
अस्माभिः सर्वैः
ज्ञायते इति एव तत्र तदनन्तरं यदस्ति तदेव तत्र अग्रे अपि भवति तत्र तस्य परिवर्तनं न भवति अतः इदानीं तत्र अस्माभिः सर्वैः ज्ञायते इति स्थाने
वयं
सर्वैः इति स्थाने
सर्वः
न सर्वे
सर्वैः
बहुवचने अस्ति अतः सर्वे सर्वाः इति स्त्रीलिङ्गे अस्ति
ओ
सर्वः सर्वे इति बहुवचने वयं सर्वे
जानीमः
उत्तमं हा वयं सर्वे जानीमः यत् एव वयं सर्वे जानीमः एव यत् किं
संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि
भवति इति वयं सर्वे जानीमः
जानीमः
एव तत्र संशयः नास्ति वयं सर्वे जानीमः अस्तु अग्रे
तस्मात् स वैभवं कार्यक्रमः आचर्यते तस्मात् कारणात्
नाम वयं जानीमः ज्ञानम् अस्ति अतः ज्ञानात् तस्मात् ज्ञानात् तत्र कार्यक्रमः आचर्यते तत्र आचर्यते इति तत्र कार्यक्रमः आचर्यते तत्र कर्तृरूपं किं भवति
कार्यक्रमम् आचरति
तत्र कर्तृपदं किम् इति चिन्तनीयमस्ति खलु किन्तु तत्र अस्माभिः इति स्वीकरोतु अस्माभिः कार्यक्रमः आचर्यते
वयं
कार्यक्रमं
कार्यक्रमम् आचर्यामः
आचरामः इति
आचरामः
हा आचरामः वयं वयं तस्मात् वयं सवैभवं कार्यक्रमम् आचरामः
आचरामः
अस्तु अग्रिमम्
अद्यत्वे संस्कृतेन कृताः कार्यक्रमाः जनैः
श्लाघ्यन्ते
श्लाघ्यन्ते
क्षम्यता श्लाघ्यन्ते हा तत्र पुनः तत्र लघु कर्मणि जनैः श्लाघ्यन्ते कर्मपदं किम्
जनैः श्लाघ्यन्ते जनान्
न न तत्र सूत्रं किम् अस्ति तत्र कस्य जनैः इति विभक्ति विभक्ति का
जनैः कर्तृपदं
हा अतः तत्र जनैः स्थाने किं भवति कर्तृरूप प्रयोगे
जनाः
हा जनाः श्लाघ्यन्ते इति स्थाने किं भवति
जनाः
श्लाघय
श्लाघन्ति
श्लाघन्ति अथवा श्लाघयन्ति वा तत्र
श्लाघन्ते इति आत्मनेपदि अथवा श्लाघयन्ति इति
श्लाघते श्लाघयति श्लाघन्ते
श्लाघन्ते एव वा अस्तु श्लाघते इति ओ श्लाघते इति अपि अपि अस्ति श्लाघते अस्तु तत्र अस्तु तत्र आत्मनेपदिरूपम् अस्ति अत्र श्लाघते श्लाघेते
श्लाघन्ते
श्लाघन्ते समीचीनं हा श्लाघन्ते जनाः श्लाघन्ते किं श्लाघन्ते कार्यक्रमान् हा समीचीनं
श्लाघन्ते
हा अतः पूर्णवाक्यं वदतु अद्यत्वे
अद्यत्वे संस्कृतेन कृताः
हा किन्तु हा किन्तु तत्र कार्यक्रम कार्यक्रमान् बहुवचने अस्ति खलु
कार्यक्रमान् जनाः
श्लाघन्ते श्लाघन्ते किन्तु तत्र कार्यक्रमाः कृताः इति अस्ति तत्र तयोः मध्ये सम्बन्धः अस्ति वा
कृताः
अद्यत्वे सर्वं त्यजतु कृताः कार्यक्रमाः इति अस्ति तत्र
संस्कृतेन कृताः
सर्वं त्यजतु कृताः कार्यक्रमाः तदेव तत्रैव तत्र सम्बन्धः अस्ति वा तयोः शब्दयोः मध्ये कृतम् अस्ति चेत् कृतं
कार्यक्रमः
कृतः कार्यक्रमः कृतः कार्यक्रमः
कृतः कार्यक्रमः
अतः तत्र कीदृशसम्बन्धः अस्ति तत्र
विशेषणविशेषः
हा अतः तत्र कार्यक्रमान् इति भवति चेत् तत्र किं भवति कृताः इति
कृताः
कृतान्
तस्य अपि विभक्तिपरिवर्तनं भवति खलु
महोदय
अतः कृतान् कार्यक्रमान् हा जनाः अद्यत्वे जनाः श्लाघन्ते किं श्लाघन्ते संस्कृतेन कृतान् संस्कृतेन कृतान् कार्यक्रमान् जनाः श्लाघन्ते अद्यत्वे इति समीचीनं भगिनि अस्तु अग्रे तत्र रघुपतिमहोदय अग्रे करोति वा ओ अस्तु समयः अपि जातः अस्तु तत्र
पूरयामः महोदय
अस्तु महोदय पूरयामः पूरयामः अस्तु हा निमिषद्वयं स्वीकृत्य पूरयामः अस्तु
अस्तु प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृत अनुराग अनुरागिभ्यः च मया आमन्त्रणं प्रेष्यते अहम् आमन्त्रणं प्रेषयामि कस्मै केभ्यः इत्युक्ते प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृत अनुरागिणेभ्यः च अहम् आमन्त्रणं प्रेषयामि.
हा समीचीनं. हा अग्रे.
केचन प्रतिष्ठिताः अपि विशेषेण आहूयन्ते. के अस्तु प्रतिष्ठिताः आहूयन्ते आह्वयामि इति
समीचीनं. आह्वयामि
अहम् आह्वयामि मया आहूयन्ते प्रतिष्ठिताः आहूयन्ते इति अस्ति. इदानीम् अहम् आह्वयामि विशेषेण आह्वयामि इति अस्ति. विशेषेण आह्वयामि कान् आह्वयामि कांश्चन प्रतिष्ठितान् प्रतिष्ठान् अपि विशेषेण आह्वयामि.
हा समीचीनं. हा तत्र कांश्चन इव खलु महोदय, तत्र कांश्चन इति वा
कांश्चन इति भवति? तद् नित्यनेन अनुस्वारम् अपि च अनन्तरं तत्र
सत्यं सत्यं. हा अस्तु अस्तु.
तत्र
अस्तु कांश्चन प्रतिष्ठितान् अपि
विशेषितान् अपि विशेषेण आह्वयामि
आह्वयामि. हा समीचीनम्. अग्रे.
तेषां पुरतः चिताः संस्कृतिकार्यक्रमाः प्रस्तूयन्ते. हा तेषां पुरतः चितान् सांस्कृतकार्यक्रमान् प्रस्तूयन्ते.
तत्र पुनः तत्र स्तौति. हा तत्र
स्तौति प्रस्तुवन्ति इति अस्ति कार्यक्रमः.
तत्र
किमस्ति तत्र स्तुवन्ति स्तुवामः वा प्रस्तुवामः वा
स्तौमि इति प्रायश स्तौमि इति
स्तौ इति स्तौ इति दातु अस्ति महोदय स्तौ इति स्तौ.
हा तत्र स्तौमि इति प्रायश अस्ति खलु तत्र.
हां स्तू दातु खलु तत्र प्रायः तत्र स्तुवन्ति तत्र स्तौति अथवा
स्तौमि 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 महोदय
वयं स्तुमः इति तत्र
वयम् इति वयं तु स्तुमः वयं स्तुमः
स्तुमः स्तुमः इति
तेषां पुरतः
स्तुमः इति
तेषां पुरतः वयं
संस्कृतकार्यक्रमान् स्तुमः प्रस्तुमः
चितान् संस्कृतकार्यक्रमान् प्रस्तुमः प्रस्तुमः. समीचीनं. हा तदनन्तरम्
अन्ते च पुरस्काराः प्रदीयन्ते. अन्ते च पुरस्कारान्
प्रदास्यामि अथवा
प्रदद्मः इति प्रतीकचिह्नानि फलकानि प्रतीकचिह्नानि स्मारकं
तत्र
प्रमाणपत्राणि च वितीर्यन्ते. प्रतीकचिह्नान् प्रमाणपत्राणि च चिह्नानि खलु प्रतीकचिह्नानि प्रमाणपत्राणि च वितरामः.
हा वितरामः. समीचीनं महोदय.
वितरति खलु वितरति वितरामः.
हा सत्यं. हा
वितरामः
समीचीनं महोदय.
वयं सर्वे सम्भूय संस्कृतत्वयम् आचरामः.
अत्र किम् अत्र तत्र आचरामः तत्र तु तत्र लोट्लकारः.
अस्माभिः सर्वैः सम्भूय संस्कृतसप्ताहः आचर्यते.
हा
इति कर्मणि प्रयोगे भवति.
हा अस्तु अस्तु अस्तु. हा अस्माभिः. हा समीचीनं. हा
आचर्यते खलु आचर्यते. अग्रे कार्यक्रमं यशस्विनं च कुर्याम. अत्र
कार्यक्रमः यशस्वी कार्यक्रमः च अस्माभिः क्रियते अस्माभिः क्रियते इति. समीचीनं महोदय. धन्यवादः पूरितवान्. धन्यवादः महोदय. अस्तु अस्तु. तत्र लक्ष्मी भगिनी भवती एव अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि?
अस्तु महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः भगिनी. धन्यवादः सर्वेभ्यो नमः सर्वेषां धन्यवादः सर्वेषां धन्यवादः सर्वेभ्यो नमः सर्वेषां कृते धन्यवादाः
पुनर्मिलामः।